नमः विष्णुपादाय कृष्णप्रस्थाय भूतले श्रीमते भक्ति वेदांत स्वामी तिनामिने नमस्ते सारस्वत देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्य सतारिणे जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौर भक्त बिंद हरे कृष्णा कृष्ण कृष्णा हरे 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 राम 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 हरे हरे। प्रथम स्कंध अथ चतुर्थोध्याय महर्षि व्यास का असंतोष। व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणां वृद्धा कुलपति सूतं ववृच शौनको ब्रवीत्। शौनक उवाच सूत सूत महाभाग वदनो वदतां वर कथां भागवतीं पुण्यां जदा भगवान् शुकः। कस्मिन् युगे प्रवृत्तेयं स्थाने वाकेन हेतुना कुतः संचोदितः कृष्णः कृतवान् संहितां मुनिः। तस्य पुत्रो महायोगी समुद्रिं निर्विकल्पकः एकान्तमतिरुन्निद्रो गूढो मूढैवेयते। दृष्ट्वानुयान्तमृषिमात्मजमाप्यनग्नं देव्यो ह्रिया परिदधूर्न सुतस्य चित्रम् तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुंभिदा न तु सुतस्य विवेक्तदृष्टेः। कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् उन्मत्तमुकजडवद् विचरन् गजसावये कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह संवादः समभूतात् यत्रैषा सात्वती श्रुतिः। सकुतो हनुमात्रं हि गृहे सुगृहमेधिनाम् अवेक्षते महाभागस्तीर्थी कुर्वंस्तदाश्रमम् अभिमन्युसुतं भागवतोत्तमम् तस्य जन्म महाश्चर्यं क्रमाणि च गृणीहिनः। स सम्राट् कश्यपा हेतो पाण्डूनां मानवर्धनः प्रायोपविष्टो गङ्गायामनादृत्याधिराश्रियम् नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीयधनानि शत्रवः कथं सवीरः श्रियमङ्गदुस्त्यजाम् युवै सतो स्रष्टुमहो सहासुभि। शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनः जीवन्ति नात्मार्थमसौ पराश्रयम् मुमोच निर्विद्य कुतः कलेवरम्। तत्सर्वं नः समाचक्ष्व पृष्टो जदीह किञ्चन मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्। सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये जातः पराशरायोगी वासव्यां कलया हरेः। स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचि विविक्तदेश आसीन उदिते रविमण्डले। परावरज्ञः स ऋषिः कालेन व्यक्तरंहसा युगधर्म व्यतिकरं प्राप्तं भुवि युगे युगे भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्। अश्रद्धधानानि सत्त्वान् दुर्मेधान् हर्षितायुषः दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा सर्ववर्णाश्रमाणां यद्दध्यो हि तममोघदृक्। चातुर्होत्रं कर्मशुद्धं प्रजानां वीक्ष्य वैदिकम् व्यदधाज्ञसन्तत्यै वेदमेकं चतुर्विधम्। ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार उद्धृतः इतिहासपुराणं च पञ्चमो वेद उच्यते। तत्रग वेद धर पैल साम गो जयमिनी कवि वैशंपायन एवैको निष्णातो जजुषामुत अथर्वांगिरसा मासेत सुमंतुर्दारुणो मुनिः इतिहास पुराणानां पिता मे रोमहर्षणः तयेत ऋषयो वेदं स्वं संव्यस्यन्ननेकधा शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते साखिनो भवन् तयेव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा एवं चकार भगवान् व्यासः कृपणवत्सलः स्त्री शूद्र द्विजबंधूनां त्रयीण श्रुतिगोचरा कर्म श्रेयसी मूढ़ानां श्रेयेवं भवेदिह इति भारतमाख्यानं कृपया मुनिना कृतम्। एवं प्रवृत्तस्य सदा भूतानां श्रेयसी द्विजः सर्वात्मकेनापि जदा नातुष्यद् हृदयं ततः नाति प्रसीदद् हृदय सरस्वत्यास्तटे शुचौ वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवीत् धृतव्रते नहि मया छन्दांसि गुरवोग्नयः मानिता निर्व्यलीकेन गृहीतं चानुशासनम् भारतव्यपदेशेन याम्नायार्थश्च दर्शितः दृश्यते यत्र धर्मादिस्त्रीशूद्रादिभिरप्युत तथापि बत मे दह्यो यात्मा चैवात्मना विभुः असम्पन्नैवा भाति ब्रह्मवर्चस्य सत्तमः किं वा भागवता धर्मा न प्रायेण निरूपितः प्रियः परमहंसानां त एव ह्यच्युतप्रियः तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः पूजयामास विधिवन् नारदं सुरपूजितम्। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां प्रथमस्कन्धे नैमिषोपाख्याने चतुर्थोऽध्यायः।